अथ श्री कालप्रियेश स्तोत्रम् विधीश मुख गिरवाण याचना फलमद्भुतम् दिव्यं भासं भजे व्यासं शिशुं शशिमुखं सदा दर्शनं केवलं यस्य सुखं दिव्यं प्रयच्छति अवर्णनीयलावण्यं व्यासं वन्दे रविप्रभम् तेजसा बालमार्ताण्डः लावण्येन च मन्मतः निर्जितो येन तं वन्दे व्यासं सुस्मितसुन्दरं सृष्टिकर्ता विधातास्य पुत्रो पौत्रश्च शङ्करः अनादिनि धनं वन्दे तं बालं बालभास्करं जातमात्रोऽभिवृद्धश्च वटुर्दिव्यो बभूवः वामनः काश्यपो यद्वत् तपस्वी कुलवर्धनः भक्तानां हृदये स्थित्वा तमो ज्ञानं विनाशयन् बालतिघ्नांशु सङ्काशं व्यासं वन्दे सतां पतिं वसिष्ठवंशमार्ताण्डं तपस्वी कुलमण्डनं पाराशरात्मजं वन्दे वासवी नन्दनं सदा अध्ययेन विनैवायं सर्वज्ञो ज्ञानदायकः केनापि नैव विज्ञेय तं वन्दे वासवीसुतं यन्नाम कीर्तितं पापं हन्ति तूलमिवानिलः तं वन्दे मोहनं व्यासं चिदानन्दप्रदायकम् व्यासस्येयं स्तुतिर्नित्यं पठिता बालरूपिणः विद्यां बुद्धिं ददातीशः निर्मलं ज्ञानमेव च इति श्रीमद्सुधीन्द्रतीर्थकृतं श्रीकालप्रियेश स्तोत्रं सम्पूर्णम्।